यस्य प्रभा प्रभवतो जगदण्डकोटि कोटि सवसुधारी विभूति भिन्नम् तद्ब्रह्म निष्कलमनन्तमशेषभूतम् गोविन्दम् आदिपुरुषम् प्रकरसदमसु कल्पवृक्षलक्षाब्दितेषु सुरभिरभिपालयन्तम् लक्ष्मीसहस्रशतसंभ्रम सेवमानम् गोविन्दम् आदिपुरुषं तमाहं गोविन्दम् आदिपुरुषं तमाहं भजामि माया हि यस्य जगदन्नसूते माया हीयस्य सतानि जगदन्नसूते सत्तावलम्बी परसत्यम् विशुद्ध सत्यम् गोविन्दम् आदिपुरुषम् तमाहं भजामि चिन्तामणिः प्रकरकर्मसु कल्पवृक्षलक्षावृतेषु सुरभि रविपालयन्तम् लक्ष्मी सहस्रशतसं नम सेवमानम् गोविन्दम् यादिपुरुषम् तमाहं भजामि गोविन्दम् आदिपुरुषम् तमाहं भजामि गोविन्दम् आदिपुरुषम् आनन्दचिन्मनसात्मतया मनस्सु जप्राणिनां प्रतिफलं स्मरतामुपेत्या आनन्दचिन्मयरसप्रतिभाविता जप्राणिनां प्रतिफलं स्मरतामुपेत्या लीलायितेन भुवनानि जयत्तजस्सन् गोविन्दम् आदिपुरुषम् तमाहं भजामि Govindam Adi Purusham Tamaham Govindam यत्कारुणान्नवजले भजति सयोगम् निद्रामनन्तजगदन्न सरोमकूप यत्कारुणान्नवजले भजति यत्कारुणान्नवजले निद्रामनन्तजगदन्न सरोमकूपम् यत्कारुणान्नवजलीष्मम् योगनिद्रां भजति जगदन्न सरोमकूपम् विष्णोर्महान् कलयजस्य कलान्तेषु विष्णोर्महान् कलयजस्य कलान्तेषु गोविन्दम् आदिपुरुषम् तमाहं भजामि गोविन्दम् आदिपुरुषम् कल्पवृक्षण चापृतेषु सुरभिरभिपादयन्तम् लक्ष्मीसहस्रशतम् गोविन्दम् आदिपुरुषम् तमाहं भजामि यस्यैकमिष्टकृतकालमथावलम्बन् जीवन्ति नो मरुनजा जगदन्ननाथा यस्यैकमिष्टकृतकालमथावलम्बन् जीवन्ति जगदन्ननाथ विष्णोर्महान् संयजस्य कलाविशेष गोविन्दमादिपुरुषम् गोविन्दम् आदिपुरुषम् कल्पवृक्षणचावृतेषु सुरभिरभिपालयन्तम् काल तथात्म मनसी जगत काल तथा मनन की जगत नवंती विशंती लक्ष्मी सहस्र सतथम